गीता साधक संजीवनी 18वां अध्याय श्लोक 61 से 70 तक।
वसुदेव सुतं देवं कंस चारुरमार्दनं देवकी परमानंदं कृष्णं वंदे जगद्गुरु।
ईश्वर सर्वभूतानां जिज्ञासे गुण तिष्ठति धामयं सर्वभूतानि यन्त्रारूढानि मारया तमेव शरणं गच्छ सर्वभावेन वारत तत्र सादात्परं शान्ति स्थानं काव्यसि शाश्वतम् इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया विमृश्यैकादशेषेण यथेच्छसि तथा कुरु सर्वगुह्यतमं भूय शृणु मे परमं वच इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितं मान्मना भव मद्भक्तो मद्याजीमानमस्कुरु मामेवैष्यसि सत्यन्ते कति जाने प्रियोऽसि मे सर्वधर्मान्तरित्यज्य मामेकं शरणं गज अहं त्वा सर्वपापेभ्यो मोचयिष्यामि मा शुच इदं ते नाथपस्ताय मा भक्ताय कदाचन न सा शुश्रूषवे वाच्यं न च मां योग्यसूयति
यायिमं परमं भूयं माद्भक्तेष्वभिधास्यति भक्तिमयि परां कृत्वा मामेवैष्यच्य संशय न स तस्मान् मनुष्येषु अस्मिन् मे प्रियकृत्तमा भविता न स मे तस्मादन्यः प्रियतरो भुवि
अध्येष्यते जय इमं धर्मं संवादमावयो ज्ञानयज्ञेन तेन नेष्टस्यामि दिने मति अध्येष्यते जय इमं धर्मं संवादमावयो ज्ञानयज्ञेन तेन नेष्टस्यामि दिने मति
वसुदेवसुतं देवं कंसचारुरमार्दनं देवकी